ऋषदुवाच इत्याकर्ण्यवचो देव्याः सदूतो मर्षपूरितः सवाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट्टतः सक्रोधः प्रागदैत्यानामधिपम् धूम्रलोचनम् हे धूम्रलोचनाशुत्वम् सुसैन्यपरिवारितः कामानयबलात् दुष्टाम् केशाकर्षणविह्वलाम् तत्परित्राणतः कश्चित् यदि वोत्तिष्ठते परः सहन्तव्योमरो वापि यक्षो गन्धर्व एव वा ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः ऋतःषष्ट्या सहस्राणामसुराणाम् धृतम् ययौ स्वदृष्ट्वा ताम् ततो देवीम् तु विनाचल संस्थिताम् जगादोच्चैः प्रयाहीति मूलम् शुम्भनिशुम्भयोः न चेत् प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवम् ततः किम् ते करोम्यहम् ऋषिरुवाच इत्युक्तः सोऽभ्यता वक्तामसुरो धूम्रलोचनः हुङ्कारेणैव तम् भस्म सा चकाराम्बिका ततः अथ क्रुद्धम् महासैन्यमसुराणाम् तथाम्बिका ववर्षसायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ततो धुतसरः कोपात् कृत्वा नादम् सुभैरवम् अपातासुरसेनायाम् सिंहो देव्याः स्ववाहनः काश्चित्करप्रहारेण दैत्यानास्येन चापरान् आक्रम्य चाधरेणान्यान् स जघान महासुरान् केषाञ्चित् पातयामास नखैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्न बाहुशिरसः कृतास्तेन तथा परे पपौच रुधिरम् कोष्ठादन्येषाम् धुतकेसरः क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरम् देव्या निगतम् धूम्रलोचनम् बलम् चक्षयितम् कृत्स्नम् देवी केसरिणा ततः शुकोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च सा समादीयताम् लघु केशेष्वाकृष्य बध्वा वा यदि वः संशयो युधि तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे च विनिपातिते शीघ्रमागम्यताम् बध्वा गृहीत्वा तामथाम्बिकाम् ॐ सत्याः सन्तु यजमानस्य कामाः नमो देव्यै महादेव्यै शिवाजै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् साङ्गायै सायुधायै सपरिवारायै सर्वात्मिकायै शताक्ष्यै धूम्राक्ष्यै नमः।